इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् समाजे यदा हिंसा प्रसाराय प्रयत्नाः क्रियन्ते तदा सः कष्टम् अनुभवति। गतसायं नवदिल्ल्यां भारतीय कैथोलिक बिशप सम्मेलनेन आयोजिते क्रिसमस समारोहे श्रीमोदी अवदत् यत् एतत् कार्यक्रम माध्यमेन सर्वैः सह क्रिसमस हर्षोत्सवम् आमानयितुम् अवसरः प्राप्स्यते। अपि च अयं दिवसः सुविशिष्टः स्मरणीयश्च यतः अस्मिन् वर्षे CBCI इत्यस्याः संस्थायाः स्थापनायाः 80 वर्षाणि पूर्णानि भवन्ति। प्रधानमन्त्रिणा उक्तं यत् भारतं स्वविदेशनीतौ राष्ट्रहिताय मानवहिताय च प्राधान्यं ददाति। अद्यतनं भारतं स्वनागरिकाणां रक्षणं स्वकर्तव्यं मन्यते। सः पुनः अवदत् यत् युद्धग्रस्तात् अफगानिस्तानात् यदा फादर एलेक्सिस प्रेमकुमारः सुरक्षितरूपेण प्रत्यानीतः तदा सः महतीं सन्तुष्टिम् अनुभूतवान्। प्रेमकुमारः दशकपूर्वं तत्र बन्धकीकृतः। प्रधानमन्त्रिणा उक्तं यत् तदीय सर्वकारस्य कृते एतत् सर्वं केवलम् अभियानजातं न अपितु परिवारस्य सदस्यानां प्रत्यानयनाय भावुक प्रतिबद्धता अस्ति। ध्यानास्पदमस्ति यत् भारते कैथोलिक चर्च मुख्यालये एतादृशे कार्यक्रमे इदं प्रथमतया कश्चन प्रधानमन्त्री उपस्थितः अभवत्। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् सर्वकारेण मातृभाषासु शिक्षा परीक्षा सुविधाः प्रदाय ग्रामीण यूनां सीमान्त समुदायानां च भाषाबाधाः दूरीकृताः। अनेन पदक्रमेण ग्रामीण युवानः समाजस्य मुख्यधारायां समाविश्य स्वस्वप्नानि साकारीकुर्वन्ति। प्रधानमन्त्री दृश्य श्रव्य संवादतन्त्रेण 170,000+ संख्याकेभ्यः युवभ्यः नियुक्तिपत्राणि वितरन् एवम् अभ्यभाषत। राष्ट्रपतिः द्रौपदी मुर्मूः अवदत् यत् चिकित्साक्षेत्रे प्राविधिक्याः वर्धमानेन उपयोगेन चिकित्साभियान्त्रिक संस्थानानां मध्ये सहभागिता अतित्रा महत्वपूर्णा जाता। गतसायं नवदिल्ल्यां वर्धमान महावीर चिकित्सा महाविद्यालयस्य सफदरजंग चिकित्सालयस्य च षष्ठे दीक्षान्त समारोहे राष्ट्रपतिना एवम् उक्तम्। पञ्चमाष्टम कक्षयोः वार्षिक परीक्षायां असफल छात्राणां परवर्ति कक्षां प्रति प्रोन्नतिपरा नीतिः केन्द्र सर्वकारेण निरस्तीकृता। शिक्षा सचिवः संजय कुमारः अवदत् यत् पञ्चमाष्टम कक्षयोः ये छात्राः वार्षिक परीक्षायाम् असफलाः भवन्ति ते मासद्वयाभ्यन्तरे पुनः परीक्षायाः अवसरं प्राप्स्यन्ति। यदि पुनः परीक्षायाः अनन्तरं ते असफलाः भवन्ति तर्हि अग्रिमकक्षायै प्रोन्नताः न भविष्यन्ति। राष्ट्रियान्वीक्षणाभिकरणेन पंजाबे आतंकवादि षड्यन्त्र रचनार्थं खालिस्तानीयातंकवादिनः लखवीर सिंहस्य आततायिनः बचिन्दर सिंहस्य च एकः सहयोगी मुम्बईतः निगृहीतः। धृतः एषः जतिन्दर सिंहः पंजाबे आतंकवादिभ्यः शस्त्राणि उपलम्भयति स्म। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः अमेरिकादेशस्य षड् दिवसीय यात्रार्थम् अद्य प्रतिष्ठते। यात्रावधौ सः तत्समकक्षेण समम् उभयपाक्षिकेषु क्षेत्रीयेषु अन्ताराष्ट्रियेषु च विषयेषु सविस्तरं चर्चिष्यते। राष्ट्रिय कृषक दिवसस्य अवसरे कृषि परिवार कल्याण ग्रामीण विकास मन्त्री शिवराज सिंह चौहानः ह्यः कृषक सम्मान दिवस कृषक ग्रामीण विकास लाभार्थी सम्मेलने सहभागम् अकरोत्। हिमाचल प्रदेशस्य ऊर्ध्ववर्ति क्षेत्रेषु हिमपातेन अधोवर्ति क्षेत्रेषु च वृष्ट्या तापमाने महती अपचितिः अभवत्। प्रसिद्धः चलच्चित्र निर्देशकः श्याम बेनेगलः गतदिने मुम्बय्यां दिवंगतः। सः 90 वर्षीयः आसीत्। अन्ते क्रीडावार्तासु भारत वेस्ट इण्डीजयोः मध्ये अनुवर्तमानायाः एकदिवसीय महिला क्रिकेट क्रीडा मालिकायाः द्वितीयं द्वन्द्वम् अद्य वडोदरायाम् आयोज्यते। एतद्द्वन्द्वं दिने 12:30 आरप्स्यते।